वक्तुण्डामः कायाकोटिसरसमर्थवः निर्विघ्नं कुरु मे देव सर्वकारेषु सर्वदा सरस्वती नमस्तुभ्यं वरदे कामरूपिणे विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुब्रह्मा गुरुर्विष्णुर्गुरुर्देव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः नमस्सर्वेभ्यः स्वागतम् अस्माकं गीतासोपानवर्गे जायमानः विषयः अस्ति पञ्चमी विभक्तिः पञ्चमी विभक्तिः तत्र वयं ज्ञातवन्तः तत्र कारकपञ्चमी भवति उपपदपञ्चमी पञ्चमीभक्तेः प्रयोगः कुत्र विधि भवति इति ते यत्र कारकम् आपादानकारकम् अस्ति चेत् तत्र पञ्चमीभक्ति भवति अथवा केषाञ्चन परिगणितपदानां योगे अपि पञ्चमी भवति यदा पदानां योगे विभक्तिः भवति पञ्चमीभक्तिः तदा उपपदपञ्चमी इति वदामः यदि कारकसंज्ञा भवति यदि केनापि सूत्रेण कारकसंज्ञा भवति अपादानकारक इत्युक्ते अपादानकारकम् इति भवति चेत् तत्र कारक पञ्चमीभक्तेः यदा विभक्तेः प्रयोगः भवति तदा कारकपञ्चमी इति वदामः कारकस्य निमित्तम् अस्ति चेत् विभक्तेः निमित्तं कारकमस्ति चेत् कारकपञ्चमी भवति पञ्चमीभक्तेः निमित्तं पदमस्ति चेत् उपपदम् इत्युक्ते तत्र पदस्य समीपे अथवा पदस्य पदस्य योजनेन भवति चेत् अथवा पदात् एव भवति पञ्चमीभक्तिः तत्र उपपदपञ्चमी इति वदामः तत्र पञ्चमी द्विविधाः इति ज्ञातवन्तः तत्रापि सामान्यतः किं भवति कुत्र भवति पञ्च कारकं यदि कारकं वयं जानीमः कदा कारकं भवति यदि क्रियया सह सम्बन्धः अस्ति चेत् पदस्य तत्र कारकः भवति इदानीम् अपादानकारकम् इति अस्ति तद् कुत्र भवति इति वयं तत्र केषाञ्चन सूत्राणां तत्र अध्ययनं केषाञ्चन सूत्राणाम् अध्ययनं कृतवन्तः प्रथममासीत् ध्रुवम् अपाये अपादानम् इत्युक्ते यत्र वियोगः विश्लेषः भवति यत्र तत्र संयोगात् विश्लेषः भवति तदा यद् अवधिभूते यद् ध्रुवमस्ति तस्य पञ्चमी भवति इति वयं दृष्टवन्तः वृक्षात् पर्णं पतति इति तत्र तत्र वृक्षः ध्रुवमस्ति पर्णम् अधः पतति अतः तत्र पतनक्रियाश्रयपर्णः तत् कर्ता अस्ति पर्णं पतति इति अस्ति इदानीं यत् विभागः कुतः भवति वृक्षात् भवति अतः वृक्षात् पर्णं पतति वृक्षात् फलं पतति आकाशात् मेघः वर्षति इति तादृश वयं जानीमः तत्र पञ्चमी भवति इति वयं दृष्टवन्तः अपि च एकं कारिका आसीत् सारी वार्तिकम् आसीत् तत्र जुगुप्सा विराम प्रमादार्थानां तत्र जुगुप्सा जुगुप्सते टु मूव् अवे फ्रम् द जुगुप्सा अथवा विराम टु मूव् अवे फ्रम् द तत्रापि अथवा प्रमाद तत्र तेषां तादृश अर्थानां पदानां यो तत्रापि पञ्चमी भवति इति वयं दृष्टवन्तः तत्र पापात् जुगुप्सते इत्युक्ते तत्र जुगुप्सायाः विषयः अस्ति पापम् अस्ति तस्य अपादानसंज्ञा भवति तत्र पापात् जुगुप्सते किमर्थं तत्र उपसङ्ख्यान वार्तिकस्य आवश्यकं किमर्थम् इति चेत् तत्र संयोगः नास्ति यत्र संयोगः अस्ति चेत् विश्लेषः भवति यदा विभागः भवति वेन् सपरेशन् हेपन्स् देन् ओन्लि पञ्च कारकं भवति इति अपादानकारकं भवति इति ध्रुवम् अपाय अपादानम् इति सूत्रेण वयं पठितवन्तः परन्तु जुगुप्सा इदानीं पापात् जुगुप्सते तत्र पश्य तत्र संयोगः नास्ति खलु दिस् इस् फ्रम् कमिटिङ्ग् ए पाप कमिटिङ्ग् ए सिन् तत्र संयोगः नास्ति तत्र साक्षात् नास्ति अतः तत्र तत्र वार्तिककारः आसीत् तत्र वार्तिककारः अस्ति कात्यायनः तेन रचितमस्ति एतदपि एतेषां योगे अपि कारकविभक्ति कारकः भवति पापात् जिगुप्सते अधर्मात् विरमति अधर्मात् विरमति इत्युक्ते स्टाप्स् फ्रम् डूयिङ्ग् अधर्म अधर्मात् विरमति प्रमाद तदपि प्रमाद् धर्मात् प्रमाद्यति हि मूव्स् अवे फ्रम् धर्ममार्ग धर्मात् प्रमाद्यति तत्रापि पञ्चमीभक्ति भवति इति वयं दृष्टवन्तः तत्र ध्रुवम् अपादानमपि च जुगुप्सा विराम जुगुप्सा विराम प्रमादार्थानां योजनम् उपसङ्खनमिति योजनं तेषां योगे अपि पञ्चमी भवति इति वयं अपादानकारकं भवति इति वयं दृष्टवन्तः. द्वितीयसूत्रमासीत् भीत्रार्थानां भयहेतुः इति. भी इत्युक्ते भय, त्रा इत्युक्ते त्रै, त्रायते रक्षणं. यत्रापि तत्र भयस्य यस्य भयार्थानां पदानां योगे तत्र भयार्थानाम् अपि च त्रायते रक्षणार्थानां तत्र क्रियापदानां योगे अपि तेषां योगे अपि किं भवति, यस्य भयहेतुः अस्ति तस्य तस्मात् तस्य अपादानकारकं भवति. यथा चोरात् बिभेति इति अस्ति तत्र, बालकः बिभेति. इदानीं बालकः बिभवति तत्र कारणं किम् अस्ति, हेतुः चोरः. अतः तस्य भयहेतुः अस्ति तस्य पञ्चमी भक्ति अपादानकारकं भवति. अतः तत्र बालकः चोरात् बिभेति. भी धातोः तत्र एतत् ज्योत्यादिकरणे अस्ति, द्युत्तं भवति, बिभेति इति भवति, द्युत्तं भवति, बिभेति इति रूपमस्ति इति. तत्र तादृश क्रियापदानां योगे अपि तत्र यस्य भयहेतुः अस्ति तस्य यस्मात् भयः भीतिः भवति तस्य पञ्चमी अपादानकारकं भवति. अतः चोरात् बिभेति इति भवति. इदानीं रक्षति, त्रायते इति खलु, व्याघ्रात् रक्षति, व्याघ्रात् रक्षति. अत्रापि रक्षण इति त्रा भ्री भ्री अपि त्रार्थानां, त्रा इति, त्रा इत्युक्ते त्रै इति धातु, त्रार्थानाम् इति तादृश क्रियापदानां योगे अपि यस्य भयहेतुः अस्ति तस्य भवति. इदानीं रक्षणं कस्मात्, भयः भवति खलु, तदा एव रक्षणम् आवश्यकम्. अतः रक्षति इति अस्ति, रक्षति इति क्रियापदमस्ति. कस्मात् रक्षति, व्याघ्रात् रक्षति, अथवा आरक्षकः अस्मान् चोरात् रक्षति, चोरेभ्यः रक्षति इति बहुवचनस्य चोरेभ्यः रक्षति इति भवति. अतः तत्र भयहेतुः व्याघ्रः अस्ति, बालकं व्याघ्रात् रक्षति इति अत्र भवति चेत्, बालकः अस्ति सः इदानीं तस्य भयः अस्ति व्याघ्रात्, व्याघ्रस्य भयः अस्ति तस्मात् तस्य रक्षणं करोति तस्य पिता. अतः पितुः बालकं व्याघ्रात् रक्षति इति भवति. तत्र व्याघ्रस्य पञ्चमी विभक्ति भवति, अपादानकारकं भवति. एतदस्ति भी अपि त्रार्थानां योगे, तादृश अर्थानां त्रायते इति, अथवा देवः अस्मान् कष्टात् त्रायते, कष्टात् रक्षति, कष्टम् अत्र अथवा किमपि प्राब्लम्स् यु नो कष्टम् अथवा किमपि भवतु अस्मान् किमपि अन्यत् अस्ति कष्टस्य अनिष्टात् अनिष्टात् त्रायते, अथवा अथवा दुःखात् त्रायते, दुःखे सङ्कटात् त्रायते, सङ्कटात् रक्षति इति अपि भवितुमर्हति इति अस्ति. इदानीम् अग्रे तत्र किमर्थं तत्र अत्र पश्यतु, अत्र एक ध्रुवमपाय अपादनम् इत्यस्य इत्यनेन सूत्रेण एव भवितुमर्हति. पश्यतु यद्यपि तत्र संयोगः नास्ति परन्तु वियो बुद्धिकृतविश्लेषः भवति खलु. इदानीं इट्स् आक्चुलि फ्रम् द मैण्ड् देर् इस् आक्चुलि वेन् यु आर् मूविङ्ग् अवे फ्रम् देट् बुद्धिकृतविश्लेषः भवितुमर्हति. देर् इवन् दो साक्षात् नास्ति तत्र बुद्धिकृतविश्लेषः भवितुमर्हति. अत्र भवति साक्षात् भवति भवितुमर्हति. यत् व्याघ्रं व्याघ्रं दृष्ट्वा वयं ततः पलायनं कुर्मः ततः अपि भवति. परन्तु रक्षात् अथवा किमति कष्टात् देवः अस्मान् सङ्कटात् त्रायते, तत्र संयोगः नास्ति. यद्यपि सङ्कटः न आगतः तत्र, तथापि वयं तादृशवाक्यं रचयितुं शक्नुमः. तत्र संयोगः नास्ति, तद् बुद्धिकृत तत्र अपादान तत्र तादृश भवितुमर्हति. अतः एव तत्र भाष्यकारः पतञ्जलिः उक्तवान् अपादानकारकस्य कृते एक एव सूत्रम् आवश्यकम्, अन्यानि सर्वाणि न आवश्यकानि इति उक्तवान् तेन. परन्तु तत्र अस्माकं स्पष्टार्थं किमर्थम् इति, ध्रुवम् अपाय अपादनम् इत्यत्र वृक्षात् पर्णं पतति, तत्र शाखात् पर्णं पतति, शाखा अपि च पर्णस्य योः संयोगः अस्ति, अन्यत्र अन्येषु स्थलेषु अथवा पापा जिगुप्सते विरमति अत्र संयोगः नास्ति चेदपि पञ्च पञ्चमीविभक्तेः किमर्थं भवति अस्माकं मनसि भ्रमः भवेत् इति कृत्वा तत्र कार्तिकवार्तिककारः योजितवान् अस्ति. अथवा चोरात् बिभेति, अत्रापि चोरस्य अपि च यदि बालकः चोरात् बिभेति अथवा चोरस्य अपि च बालकस्य संयोगः नास्ति चेदपि पूर्वमेव तत्र पञ्चमीविभक्तिः भवति, चोरात् अपादानकारकं भवति. किमर्थम् इति तत्र अस्माकं तत्र भ्रमः भवितुमर्हति, किमर्थम् अपादानकारकः भवति, संयोगः नास्ति खलु इति. परन्तु तादृश नास्ति, बुद्धिकृत अपादान भवितुमर्हति, बुद्धिकृतसंयो वियोगः भवितुमर्हति खलु. अतः तादृश. इदानीम् अग्रे आख्यात उपयोगे इति अग्रिमं सूत्रम् एकं दृष्टवन्तः. उपयोग आख्यात उपयोगे, आख्यातोपयोगे इत्युक्ते आख्यात उपयोगे कस्य भवति, आख्यात इत्युक्ते वक्ता, आख्यात आख्यातृ इति ऋकारान्त, वक्ता वक्तृ, तद् आख्यात अध्यापयित इति पश्यतु अत्र अध्यापयित. आख्यात उपयोगे, उपयोगे इत्युक्ते नियमपूर्वक विधिस्वीकारः इति. इदानीं तत्र किमस्ति नियम, यत्र उपाध्याय उच्च उपाध्याय किं करोति, तद् उच्चारयति, तस्य अनुच्चारणं भवति शिष्यस्य. इदानीं शिष्यः उपाध्यायात् अधीते, उपाध्याय नियमपूर्वक, वि आर् गेटिङ्ग् द ज्ञानं फ्रम् द गुरु, सो एट् दट् टैम् ओन्लि. तत्र आख्यात उपयोगे यत्र नियमपूर्वक अस्ति चेत् एव भवति. इदानीं पश्यतु, वयं किमपि नाटकं प्रति गच्छामः, तत्र यत्र नटः अस्ति सः किमपि कथां वदति अथवा किमपि वयं शृणुमः, तत्रापि इदानीं पश्यतु इदानीं तत्र शिष्यः उपाध्यायात् अधीते, उपाध्यायात् उपाध्यायात् अधीते इति अस्ति. इदानीं नटस् अत्र नाटकं गच्छामः, तत्र किमपि सः गाथा वदति, कथां वदति, तत्र किं भवति, तत्र नटात् कथां शृणोति इति न भवति, तत्र नटस्य गाथा शृणोति. अत्र किमस्ति नियमपूर्वकविधिस्वीकारः अस्ति नास्ति खलु, तत्र वि आर् नाट् गोयिङ्ग् देयर् टु लर्न् सम्थिङ्ग्, वि आर् गोयिङ्ग् जस्ट् हियर्. सो अत्र षष्ठी भवति, नटस्य गाथा शृणोति इति भवति. अत्र नटात् गाथा, नटात् इदानीं नटात् कथां शृणोति इति न भवति, पञ्चमी न भवति तत्र. यथा अत्र उपाध्यायात् अधीते इति पञ्चमी भवति, तत्र न भवति. किमर्थं, तत्र विधिपूर्वक विद्यास्वीकारः नास्ति. यदा वयं नाटकं गच्छेम तत्र किमपि शृणुमः, कथा या गीतां शृणुमः, तत्र वि आर् जस्ट् लिसनिङ्ग्, तद् नियमपूर्वक, वि आर् नाट् देयर् टु लर्न्. वेन् यु आर् गोयिङ्ग् देयर् टु लर्न् म्यूसिक् तदा भवति. इदानीं तत्र वयं तत्र कोऽपि नाटक तत्र किमपि ड्रामा इन्स्टिट्यूट् तत्र भवति चेत् तत्र भवति, तत्र यत् नटः अस्ति, यद् अध्यापकः नट एव, नटात् नटात् अध्ययनं तत्र अभिनयं तत्र अभिनयम् अधीते, नटात् अभिनयम् अधीते, तादृश तत्र भवति, पञ्चमी भवति. परन्तु इफ् यु आर् गोयिङ्ग् देयर् जस्ट् टु वाच् मूवी आर् वाच् ए ड्रामा आर् टु जस्ट् लिसन् तत्र न भवति, तत्र षष्ठी भवति, तत्र शेषषष्ठी तिनषष्ठी भवति. परन्तु नियमपूर्वक विद्यास्वीकारः अस्ति चेत् तत्र पञ्चमी भवति. अतः तत्र अपादानकारकं भवति, अतः एव शिष्यः उपाध्यायात् अधीते इति भवति. तादृश इति अस्ति अत्र आख्यात उपयोगे. आख्यात तस्य उपयोगे इति उपयोगे सति, उपयोगे इति नियमपूर्वकविधिस्वीकारे सति अपादानकारकं भवति कस्य, आख्यात इत्युक्ते वक्ता तस्य इति एतत् सूत्रं वदति. अस्तु, अग्रे अग्रिमं वयं दृष्टवन्तः जनिकर्तुः प्रकृतिः इति अस्ति. अत्र जनिकर्तुः तत्र प्रकृतिः इति जायमानस्य हेतुः अपादानं स्यात् इति यस्य हेतुः अस्ति. अथवा पश्यतु, हेतु तृतीया इति वयं जानीमः, तन्तुना पटं भवति इति वयं पटः भवति इति वयं हेतुप्रयोगे तृतीया भवति इति वयं कुत्र अन्यत्र वयं दृष्टवन्तः पठितवन्तः प्रायः, इदानीं मम स्मरणे नास्ति. तृतीयाविभक्तिः वयं पठितवन्तः वा पूर्वं, तृतीयाविभक्तिः एकवारं, तृतीयाविभक्तिः न पठितवन्तः वा? अस्तु न पठितवन्तः, अग्रे पश्यामः इदानीं। तृतीया विभक्तिः भवति हेतु, तृतीया भवति, परन्तु पञ्चमी अपि भवितुमर्हति। जनिकर्तु प्रकृति इत्यनेन अपादानकारकं तत्र भवति, जायमानस्य हेतुः अस्ति। इदानीं तन्तुभ्यः पटः भवति, तन्तुभ्य इति तन्तु इत्युक्ते द थ्रेड्, थ्रेड् वस्त्रं, पटः इत्युक्ते वस्त्रं, तन्तुभ्यः पटः भवति। अत्र जायमानः अस्ति पटः, विच् इस् गोयिङ्ग् मेड्, तस्य हेतुः अस्ति तन्तु, तन्तु अस्ति। अतः तन्तवः, तन्तवः तन्तुः इति तत्र तन्तुः इत्यस्य बहुवचनरूपं तन्तवः, अतः तन्तवः अपादानं भवति, ततः पञ्चमी भवति, तन्तुभ्यः पटः भवति। किमर्थं जनकर्तु प्रकृति इति तत्र नूतनसूत्रं, किमर्थं ध्रुवम् अपाय अपादानम्? अत्र विश्लेषणं नास्ति खलु, अत्र संयोगः अस्ति, यत्र अत्र संयोगः अस्ति, उपादानमस्ति, अपादानं नास्ति। तत्रापि भवति उपादानम् इत्युक्ते जायिण्ट्, यत्र भवति समवायसम्बन्धः भवति खलु, तत्र तत् उपादानं भवति इति, अपादानं नास्ति। यद्यपि तन्तु एण्ड् वस्त्रम् इति इन्क्लूडेड् इन् देट् नो, अतः तत्र यद्यपि तत्र पञ्चमी तत्र अपादानं नास्ति, तत्र इट् इस् नाट् गेटिङ्ग् सपरेट्, इट् इस् ए न्यू थिङ्ग् इस् क्रियेटेड् औट् आफ् द रा मेटीरियल्। अतः जनिकर्तु प्रकृतिः तस्य तत्र जायमानस्य हेतुः अस्ति, प्रकृतिः इत्युक्ते हेतुः, तस्य अपादानसंज्ञा भवति इति अस्ति। अस्तु, जनिकर्तुः इति जनिकर्तुः अत्र पश्यतु, तन्तुभ्यः पटः भवति इत्युक्ते जनिकर्तुः कः? तत्र जनिकर्तुः इति अत्र कस्य? पटः, पट इत्यस्य तत्र तस्य जनकः कः? तन्तुः इति अस्ति अत्र, प्रकृतिः इत्युक्ते तत्र रा मेटीरियल् विच् इस् देट्, तन्तुभ्यः पटः भवति, अथवा किमस्ति मृदः घटं, घटः भवति, सोरि मृदः खलु, मृत् इत्यस्य मृत्तिकायाः अथवा मृद् इत्युक्ते तत्र सायिल् खलु, अथवा तस्य किं भवति तकारान्तपदमस्ति कथ, मृदः इति भवति, मृदः पञ्चमी भवति, यथा भवत् इति शब्दः भवतः खलु, अतः मृदः घटः भवति, घटः इत्युक्ते पाट्, तदपि भवितुमर्हति। अतः जनिकर्तु प्रकृतिः इवत् वयं दृष्टवन्तः, तत्र एतानि सूत्राणि वयम् अधीतवन्तः। इदानीम् उपपदपञ्चमी इत्युक्ते तत्र कारकसंज्ञा नास्ति, क्रियापदस्य साक्षात् तत्र सम्बन्धः नास्ति तत्र, परन्तु तेषां योगे, परिगणितपदानां योगे अपि पञ्चमी भवति इति वयं दृष्टवन्तः। एतत् एकं सूत्रं दृष्टवन्तः, अन्यात् आरात् इतरर्थे दिक् शब्दाञ्चूत्तरपदजाहियुक्ते, पदाजाहियुक्ते इति अत्र, अन्य आरात् इतर इति, अन्य इत्युक्ते भिन्नः, आरात् इत्युक्ते समीपे, इतर इत्युक्ते भिन्नः इति अस्ति। किमर्थं तत्र तादृश अर्थानां, किं केवलम् अन्य इत्यस्य नास्ति, इतर भिन्नः तादृशानाम् अर्थानां योगे अपि पञ्चमी भवति इति। लक्ष्मणः रामात् इतरः, लक्ष्मणः रामात् भिन्नः इति तत्र इति भवति, लक्ष्मणः रामात् अन्यः इति भवितुमर्हति। तत्र तेषां योगे अपि अन्य इतर भिन्न एतादृशानाम् अर्थानाम् एतादृशपदानां योगे अपि पञ्चमी भवति, पञ्चमी विभक्ति भवति। तद् उपयोग तत्र उपपदविभक्ति वदामः, किमर्थं कारकसंज्ञा न भवति। लक्ष्मणः रामात् भिन्नः इति अस्ति, किमर्थं रामात् इति पञ्चमी? अपादानकारकं नास्ति, भिन्नः, कस्मात् भिन्नः इति, भिन्नपदस्य योगे एव तत्र तद् पञ्चमी भवति, कस्मात् भिन्नः इति, रामात् भिन्नः, तद् तत् तादृश। आरात् इत्युक्ते समीपे अथवा दूरे इति, तत्र अर्थद्वयमपि भवितुमर्हति। आरात् इत्युक्ते समीपे अपि अत्र अर्थः, तत्र अर्थद्वयमपि, समीपे अपि भवितुमर्हति, दूरमपि भवितुमर्हति, दूर अपि भवितुमर्हति। तत्र ग्रामात् आरात् वनम् अस्ति इत्युक्ते तत्र अर्थद्वयं भवितुमर्हति, ग्रामस्य समीपे वनमस्ति, ग्रामस्य ग्रामात् दूरे इति, तत्रापि पञ्चमी भवति इति अस्ति अत्र। ग्रामस्य समीपे वन अथवा ग्रामात् दूरे तत्र वनमस्ति, तत्र तादृश आरात् इत्युक्ते तत्र पञ्चमी भवति। अग्रे ऋते इत्युक्ते विदौट् विना इति योगे, विना योगे विना योगे अपि पञ्चमी भवति इति वयं दृष्टवन्तः. विना वयं दृष्टवन्तः पूर्वं द्वितीया भवति, तृतीया भवति, पञ्चमी भवति, परन्तु ऋते इत्यस्य तत्र केवलं पञ्चमी भवति सामान्यतः. अतः संस्कृतं विना संस्कृतिः दुर्ज्ञेया, संस्कृतात् ऋते संस्कृतिः दुर्ज्ञेया. संस्कृतिः संस्कृतभाषायाः तत्र अवगमनं नास्ति चेत् अस्माकं संस्कृते संस्कृतेः अवगमनं सम्यक्तया न भू न अवगमनं न भवति. किमर्थम्? अस्माकं तत्र धर्मग्रन्थाः सर्वाणि संस्कृते एव सन्ति. अस्माकं यत् प्रार्थना यदस्ति पूजायां, यद् यत्किमपि कुर्मः, तत् प्रार्थना, यत् श्लोकं, स्तोत्रं, श्लोकाः, स्तोत्राणि सर्वाणि तत्र संस्कृते अस्ति खलु. यत्र संस्कृतज्ञानं भवति चेत् अस्माकं संस्कृतिः भवति. किमर्थं? तस्य अर्थः कः इति वयं सुलभतया ज्ञातुं शक्नुमः. अतः तत्र दुर्ज्ञेय इत्युक्ते ज्ञातुं दुर्गम, ज्ञातुं कष्ट, ज्ञातुं तत्र किञ्चित् क्लेशः अस्ति. दुर्ज्ञेया इति तत्र संस्कृतात् ऋते संस्कृतिः दुर्ज्ञेया इति भवति. अग्रे तत्र अन्यत् अस्ति, तत्र किमस्ति? दिक्शब्दवाचि, तत्रापि पञ्चमी भवति. वयं दृष्टवन्तः ग्रामात् उत्तरः विद्यालयः अस्ति. कस्मात्? ग्रामात् तत्र ग्रामात् उत्तरः, ग्रामात् दक्षिणः. तत्र दिक्विशेषवाचकः, तत्र तत्रापि पञ्चमी विभक्तिः भवति इति अस्ति. कालवाचकात् अपि भवति. कालवाचकात् इति अपि भवितुमर्हति. यत्र पश्यतु, वैशाखात् पूर्वः चैत्रः, इदानीं पूर्व इति कालवाचि भवति. अत्र कालवाचि खलु, दिक् नास्ति खलु. वैशाखात् पूर्वः चैत्रः कालवाची शब्दानां तत्रापि भवति. दिक् शब्दानां योगे अपि पञ्चमी भवति इति वयं दृष्टवन्तः. अपि च अन्यद् आसीत् तत्र सूत्रे आसीत् अञ्चूत्तरपदजाहि उत्तरपद आजाहि युक्ते इति. तत्र आच् अपि आहि इति तत्र तद्धितप्रत्ययः सन्ति. तेन तत्र दक्षिणाहि इत्युक्ते दक्षिणाहि इति दक्षिणस्य दिशि इति दक्षिणाहि इति अत्र तादृश पदं सिद्ध्यति. दक्षिणाहि इत्युक्ते दक्षिणस्य दिशि इति अर्थे. अत्र तद्धितपदमस्ति, अव्ययमस्ति. दक्षिणाहि, नगरात् दक्षिणाहि, अथवा आच् इति कश्चन प्रत्ययः अस्ति. अत्र किं भवति? दक्षिणा उत्तरा इति, यद्यपि दक्षिणा अथवा उत्तरा इति अस्माकं भ्रमः भवितुमर्हति, एतत् आकारात् त्रिलिङ्गपदम् इति नास्ति. एतत् आच् इति कश्चन तद्धितप्रत्ययेन तत्र रूपितं पदमस्ति. एतत् अव्ययमस्ति. ग्रामात् दक्षिणा वनम् अस्ति. ग्रामात् उत्तरा इति इतत्र तत् एतत् उत्तरा दक्षिण इति स्त्रीलिङ्गे नास्ति. एतत्तु तद्धित अव्ययपदमस्ति. अतः तत्रापि पञ्चमी भवति इति वयं दृष्टवन्तः. अथवा अञ्चूत्तरपद इति प्राक् इति प्राक् इति पूर्व इत्यस्य किं भवति? तत्र प्राक् इति शब्दः भवति. प्राक् इति शब्दस्य योगे अपि इति तत्र इत्युक्ते पुरतः इति, अग्रे इति अर्थे अति. ग्रामात् प्राक् इति तत्र अपि पञ्चमी भवति इति वयं दृष्टवन्तः. अग्रे तत्र प्रभृति, तत्र प्रभृति अपि च प्रभृतियोगे अपि आरभ्य योगे अपि पञ्चमी भवति इति वयं पश्यामः. इदानीं तत्र न पठितवन्तः खलु, पठितवन्तः वा गतकक्षायां? बाल्यात् प्रभृति प्रायः पठितवन्तः खलु. प्रभृतिः सायं प्रभृति, कार्तिक्याः प्रभृति इति भाषाप्रयोगात् तत्र प्रभृतियोगे अपि पञ्चमी भवति. प्रभृति इत्यस्य पदस्य योगे अपि पञ्चमी भवति इत्युक्ते आरभ्य इति अर्थे. प्रभृतियोगे कथनम् आरभ्य इत्यस्य योगे अपि पञ्चमी भवति. अथवा प्रभृतिः अपि च आरभ्य इत्यस्य योगे अपि पञ्चमी भवति. बाल्यात् प्रभृतिः पञ्चमी पञ्चवादने उत्तिष्ठामि, मासात् आरभ्य मेघः वर्षति इति. तत्रापि मासम् अवधिम् आदाय मेघः वर्षति इत्युक्ते मास इत्युक्ते अवधिम् आदाय इत्युक्ते देर् इस् नो कण्टिन्युस् इट् इस् मासादारभ्य मेघः वर्तते इति. इट्स् रेनिङ्ग् फ्रम् द लास्ट् वन् मन्त् इति अवधिम् आदाय इति. तत्र तादृशयोगे अपि भवति इति अस्ति. परन्तु आरभ्य इत्यस्य योगे द्वितीयापि भवति इति तेन दत्तमस्ति इति. तत्र प्रारम्भं कृत्वा इति इत्यर्थे अपि तस्य आरभ्य इति पूर्वोदयम् आरभ्य आस्तम्यात् जपति इति. आस्तम्यात् जपति तत्रापि द्वितीया भवति इति वयं दृष्टवन्तः. तत्र द्वितीया अपि भवति. सामान्यतः पञ्चमी एव तस्य व्यवहारे वयं पश्यामः. तत्र सायं प्रातः प्रभृति सायान्तं यत् यत् करोमि जगन्नाथ इति वयं स्तोत्रेषु वयं पठितवन्तः. श्लोक कुत्रापि मम स्मरणे नास्ति इदानीं. तत्तादृश अस्ति, पञ्चमी भवति आरभ्य प्रभृति इत्य सामान्यतः पञ्चमी भवति, द्वितीया अपि भवति इति दृष्टवन्त अत्र महोदयेन दत्तमस्ति. अग्रे इदानीं तत्र बहिः अपपरिबहिरञ्चवः पञ्चम्याः. अप परि बहिस् अञ्चु इत्येतेन तत्रापि पञ्चमी विभक्तिः भवति इति अस्ति. इदानीं तत्र साक्षात् उपपदविभक्तीनां सूत्रे नास्ति, एतत् समासे अस्ति. समासे अस्ति. इदानीं पश्यतु समाससूत्रे तादृश अपपरिबहिरञ्चवः पञ्चम्याः इत्युक्ते पञ्चम्या समस्यते, पञ्चमी पञ्चमी समासः भवति इति. अत्र तत्र पञ्चम्यन्त्येन वा समस्यन्ते इति. पश्यतु वनाद् बहिः इति अस्ति. तत्र किं भवति अत्र बहिर्वनम् इति भवति. अत्र बहिर्वनम् इत्युक्ते वनाद् बहिः इति अर्थः. समासः अस्ति बहिर्वनम् इति पदमस्ति. बहिर् इत्युक्ते किमस्ति? वनाद् बहिः. अतः बहिः इति योगे अपि पञ्चमी भवति. वनाद् बहिः गृहाद् बहिः वनम् अस्ति, गृहाद् बहिः मार्गः अस्ति इति तादृश भवति. तत्रापि बहिः इति योगे अपि पञ्चमी भवति इति वयं दृष्टवन्तः. अग्रे अग्रे इदानीं तत्र न पठितवन्तः. तत्र इदानीं एकवारं तत्र यशोदा भगिनी पठति वा तत्र
कुत्र
शनै शनै गच्छति आलस्यात् आलस्येन इति तत्र. तत्र 43 पेज् नम्बर् 43 पेज् नम्बर् 43 43 तत्र सङ्ख्या नवमा अस्ति.
ओ कारक हा
कारकपुस्तकात् आमाम् का अस्तु अस्तु कोऽपि अन्य अनन्तरं भवती पठतु. अस्तु इदानीं तत्र वत्सला भगिनी पठतु इदानीं. वत्सला भगिनी श्रूयते वा? कारक 43 पेज् नम्बर् 43
कारकम्
आमां सत्यम् शनै शनै गच्छति इति खलु.
कुत्र अस्ति शनै शनै?
न तत् नास्ति, कर्मप्रवचन नास्ति. ततः पूर्वं पश्यतु पञ्चमी विभक्ति अस्ति तत्र. उपपदपञ्चमी इत्यस्मिन् सिक्स् सेवेन् एय्ट् नैन्त्
चेति पञ्चमी That is the one you want me to be?
Panchami.
No. In that ninth point. Now it is sixth, no? उपपदपञ्चमी इति
उपपदपञ्चमी सिक्स्थ् पायिण्ट्
न सिक्स्थ् पायिण्ट् ई गो एड् नैन्थ् पायिण्ट् नौ नैन्थ् पायिण्ट्
शनैः शनैः पञ्च गच्छति आलस्य आलस्येन वा
आमां सत्यं
शनैः शनैः गच्छति आलस्यात् आलस्येन वा विभाषा गुणे स्त्रियां टु त्री 24 गणे हेतौ पञ्चमी वा स्यात् श्रीलिङ्गे तु पञ्चमी न भवति अत्र आलस्यम् इति गुणवाचः शब्दः शनैः गमने आलस्यं हेतुः अतः आलस्यात् पञ्चमी भवति पञ्चम्याः विकल्पेन विधानात् पञ्चम्याः अभावे हेतौ 2323 इति सूत्रेण तृतीया भवति अतः हेतु तृतीयायाः विकल्पेन गुणं प्रति अपवादभूता पञ्चमी इति ज्ञेयम्
अस्तु अत्रैव पश्यतु अस्तु अत्रैव विभाषागुणे त्र्यम् इति सूत्रं वदति यस्य पश्यतु एकं अत्र शनैः तत्र शनैः शनैः गच्छति आलस्यात् इति अस्ति स गच्छति शनैः शनैः गच्छति इदानीं पश्यतु किमर्थं तत्र आलस्य यत् गुणमस्ति आलस्य अस्ति तस्य अतः सः शनैः शनैः इत्युक्ते हि इस् मूविङ्ग् स्लोलि अतः गुणः अस्ति चेत् गुणे यदा गुणः हेतुः अस्ति चेत् तत्र पञ्चमी भवति पक्षे तृतीया अपि भवति गुणः भवेत् इदानीं हेतुः अस्ति यत् यत् कारणमस्ति तस्य तत्र कारणं गुणः अस्ति चेत् तत्र तृतीया अपि भवति पञ्चमी अपि भवति अतः शनैः शनैः गच्छति आलस्यात् अथवा तत्र अथवा किं भवति तृतीया अपि न षष्ठी न भवति खलु षष्ठी न भवति किमर्थं केन कारणेन हेतुः अस्ति किमर्थं तस्य आलस्यम् इति गुणवाचकशब्दः अतः गुणे तत्र हेतुः अस्ति इदानीं पश्यतु शनेशे मन्दं गन्धं गच्छति तस्य कारणं किं तस्य हेतुः कः आलस्यम् आलस्यमिति गुणः अस्ति अतः तत्र
आलस्येन शनेशने गच्छति
तत्र तृतीया अपि भवितुम् अर्हति तृतीया अपि भवति अपि च पञ्चमी अपि भवति इति अस्ति अत्र इति अस्ति अस्तु अत्र अग्रे गुण तत्र अग्रे गुणः अस्ति चेदेव तत्र गुणः अस्ति चेत् तत्र पञ्चमी भवति तृतीया अपि भवति इति अस्ति तत्र अग्रे
गुणं प्रति अपवादभूता पञ्चमी इति ज्ञेयम्
वयं जानीमः खलु घट इत्युक्ते पाट् देर् इस् दण्डः अस्ति खलु टु मेक् ए पाट् देर् इस् दण्ड नो अतः दण्डात् घटः इति भवति तत्र गुणः नास्ति दण्ड इत्युक्ते यत् ददस्ति खलु वाट् इस् दट् पोल् वेन् यु रोटेट् यु मेक् घट नो सो अत्र पश्यतु दण्डात् घटः दण्डेन घटः इति न भवति तत्र
दण्डात् अद् प्रकृते
दण्डात् एव किमर्थं गुणवाचकः नास्ति अतः गुणवाचकः अस्ति तृतीया भवति अन्यथा पञ्चमी एव दण्डात् घटः इदानीं घटस्य हेतुः अस्ति दण्डः खलु कारणमस्ति खलु अतः दण्डात् घटः इति भवति दण्डेन घटः इति न भवति किमर्थं गुणः नास्ति इति अस्ति अग्रे पठतु
यद्यपि घटस्य दण्डः हेतु तथापि गुणवाचक एव पञ्चमी भवति इत्युक्तवात्पञ्चमी न दण्डस्तु दण्डस्तु न
क्षम्यताम् अत्र गुणवाचकः नास्ति क्षम्यताम् एतत् तृतीया भवेत् दण्डात् घटः न भवति पश्यतु सूत्रं वदति विभाषागुणे अस्त्रियां यत्ति यत् इदानीं तत्र हेतुः गुणमस्ति चेदेव पञ्चमी भवति अन्यथा तृतीया भवति इति अस्ति अतः दण्डात् घटः इति न भवति दण्डात् घटः इति न इति समीचीनं नास्ति यद्यपि हेतुः अस्ति परन्तु हेतु यथा शनैः शनैः गच्छति आलस्यात् इत्यस्मिन् आलस्य हेतुः अस्ति तत्र पञ्चमे भवति किमर्थम् आलस्यमिति गुणः इदानीं दण्डात् घटः इति वक्तुं शक्नुमः इति वदति अत्र तत्र ग्रन्थकारः तद् न भवति किमर्थं इति चेत् दण्डः गुणः नास्ति गुण इत्युक्ते क्वालिटि नो अत्र नास्ति खलु अतः दण्डेन घटः इत्येव भवेत् दण्डेन घटः एव भवेत् न तु दण्डात् घटः परन्तु वयं दृष्टवन्तः जनिकत्वप्रकृतिः अस्ति तत्र भवति वा जायमानस्य हेतुः तत्र पञ्चमी भवति वा तन्तुभ्यः पट भवति तत्र नास्ति एतत् प्रकृतिः नास्ति खलु तस्मात् प्रकृतिः नास्ति दण्डः प्रकृतिः नास्ति अतः तत्र रा मेटीरियल् नास्ति मृदः घटः भवति इति वयं मृदः इत्युक्ते मृत् इत्यस्य पञ्चमी मृदः घटः भवति इति कर्तुं शक्नुमः किमर्थं जनिकर्तृप्रकृति इति सूत्रेण भवति किमर्थं फ्रम् द मड् वि आर् प्रिपेरिङ्ग् द पाट् इति तत्र पञ्चमी वा जनिकर्तृप्रकृतिः इदानीं हेतुः अस्ति चेत् तत्र अत्र दण्डेन घटः दण्डात् घटः न भवति गुणः नास्ति अतः दण्डेन घटः एव प्रयोगः साधुः न तु दण्डात् इति सः अथ वदति अग्रे
दण्डस्तु न गुणः अतः दण्डेन घटः इत्येव प्रयोगः प्रज्ञायाः मुक्तिः इत्यपि न भवति
अग्रे प्रज्ञायाः मुक्तिः इत्युक्ते प्रज्ञा इत्युक्ते
प्रज्ञायाः स्त्रीलिङ्गम्
पञ्चमी इति अस्ति इदानीं प्रज्ञायाः मुक्तिः भवति वा इति प्रश्नः
इत्यपि न भवति
किमर्थम् अग्रे
मुक्ते हेतुश्च तथापि स्त्रीलिङ्गे न भवति इति निषेधात् पञ्चमी न भवति प्रज्ञायाः
स्त्रीत्वात् पश्यतु सूत्रमस्ति विभाषा यत्र किं भवति तत्र हेतुः अस्ति हेतुः अस्ति चेत् जायमानस्य कार्यस्य हेतुः पञ्चमी भवति कदा भवति तत्र विभाषा तत्र विकल्पेन भवति इति अस्ति एकमस्ति तत् हेतुः गुणः भवेत् तद् गुणः अस्ति हेतुः इति कारणं हेतु गुणः भवेत् क्वालिटि भवेत् अपि च तद्गुणः स्त्री न तु अस्त्रियाम् इति अस्ति खलु गुणे अस्त्रियां स्त्रीशब्दवाची गुणः न भवेत् अत्र पश्यतु प्रज्ञा इति स्त्रीवाची शब्दः मुक्तिः भवति मुक्तेः हेतुः अस्ति प्रज्ञा इत्युक्ते प्रकृष्टज्ञानं यदि ज्ञानं भवति अहं ब्रह्मास्मि इति ज्ञानं भवति चेत् मुक्तः भवति मुक्तिः भवति अस्माकम् अतः प्रज्ञा इति तत्र तादृश ब्रह्मज्ञानं यद् वयं प्राप्नुमः तदा मुक्तिः भवति अतः प्रज्ञा इति अस्ति प्रज्ञा इति क्वालिटि इति गुणमस्ति इति गुण इदानीं तत्र हेतुः अस्ति तर्हि सूत्रेण अनेन सूत्रेण हेतुः पञ्चमी भवेत् गुणः अस्ति चेत् भवति इति परन्तु अस्त्रियामिति उक्तमस्ति सूत्रे अतः स्त्रीशब्दवाचि गुणः अस्ति चेत् तत्र न भवति अतः प्रज्ञया मुक्तिः इति तृतीया एव भवेत् हेतु तृतीया एव भवेत् तत्र तृतीया भवेत् प्रज्ञया मुक्तिः न तु प्रज्ञायाः मुक्तिः इति भवेत् इति अस्ति अवगतं खलु केवलं किमर्थम् अवगतं खलु तत्र प्रज्ञयाः तत्र गुणे अस्त्रियां यत् शनैः शनैः गच्छति आलस्यात् अथवा किमपि अथवा उच्चैः वदति क्रोधात् इति भवति उच्चैः वदति क्रोधात् अथवा उच्चैः रटति अथवा उच्चैः रोदिति इति दुःखात् इति अत्र दुःखेन अथवा दुःखात् इत्यपि पञ्चमी भवति गुणः अस्ति खलु दुःखम् इति गुणः अस्ति अथवा क्रोधः इति गुणः अस्ति इति भवति तत्र इति तत्र गुण तृतीया भवति, तृतीया अपि पञ्चमी भवति, तत्र गुणः स्त्रीलिङ्गः अस्ति चेत् न भवति. अस्तु, इति अस्ति. अग्रे धन्यवादः. इदानीं तत्र पठतु.
पर्वतः बहिमान् धूमात् नास्ति घटोनुपलब्धि.
अग्रे पठतु. अग्रे अनुपलब्धे नास्ति घटः अनुपलब्धेः इति अस्ति अत्र.
श्रूयते वा?
अग्रे पठतु. हा श्रूयते, श्रूयते.
अत्र बहिज्ञानं धूमः हेतुः, अतः धूमात् पञ्चमी. घटभावस्य अनुपलब्धिः अनुपलब्धिः हेतुः. अतः
अत्र पश्यतु, अत्र पर्वतः वन्निमान् वन्निमान् अस्ति. वह्निः इत्युक्ते किमस्ति? वह्निः इत्युक्ते अग्निः. अग्निः किमर्थं वह्निमान् अस्ति? तत्र वह्निमान् मतु प्रत्यये वह्निमान् अस्ति, पर्वतः वह्निमान् इति. किमर्थं वयं ज्ञातुं शक्नुमः वह्निमान् अग्निः अस्ति तत्र पर्वते इति? तत्र धूमः अस्ति. हा, यत्र धूमः तत्र अग्निः अस्ति, वह्निः अस्ति खलु अत्र. अतः तत्र तत्र वह्निज्ञानस्य हेतुः अस्ति, अतः तत्र पञ्चमी भवति. तत्र हेतुः अस्ति, तत्र पञ्चमी भवति. वह्निज्ञानस्य हेतुः अस्ति, अतः पर्वतः वह्निमान् धूमात् वह्निमान् अस्ति, अतः धूमात् पञ्चमी. अत्र घटस्य अभावस्य अनुपलब्धिः हेतुः, अतः अनुपलब्धेः पञ्चमी. अनुपलब्धेः तत्र अभावस्य एतत् न्याय वाक्यमस्ति तत्र त्यजामः. अग्रे पश्यतु. ननु धूमः न गुणः, अनुपलब्धि यद्यपि गुणः तथापि स्त्रीलिङ्गे वर्तते, अतः इभाषगुणे अस्ति इति स्त्रियां सूत्रेण धूमात् अनुपलब्धे इत्यनयोः कथं पञ्चमी इति प्रश्नः भवति. पश्यतु, धूमः इति अस्ति. धूमः धूमः इति गुणं नास्ति खलु? वयं पूर्वस्मिन् तत्र विभाषागुणे अस्त्रियम् इति सूत्रेण तत्र गुणः अस्ति चेदेव पञ्चमी भवति, हेतोः पञ्चमी भवति इति वयं दृष्टवन्तः. परन्तु अत्र वाक्यमस्ति पर्वतः वह्निमान् धूमात् वह्निमान् इति अस्ति. किमर्थम् इति प्रश्नः इति अस्ति तत्र. ननु अग्रे अत्र अग्रे पठतु भगिनि. तत्र
ननु धूमः न गुणः अनुपलब्धिः यद्यपि गुणः तथापि स्त्रीलिङ्गे वर्तते.
तत्र दत्तमस्ति ननु धूमः न गुणः. गुणः न खलु तत्र, वयं दृष्टवन्तः गुणे अस्ति चेदेव तत्र पञ्चमी भवति. परन्तु अत्र धूमात् इति धूमः गुणः नास्ति, तत्रापि पदार्थः अस्ति, तत्रापि पञ्चमी किमर्थम्? अथवा अस्त्रियाम् इति अस्ति, उपलब्धिः अनुपलब्धिः इति गुणः अस्ति, परन्तु अनुपलब्धिः इति स्त्रीलिङ्गे अस्ति. अस्त्रियाम् इति उक्तमस्ति, तथापि तत्र पञ्चमी अनुपलब्धेः इति पञ्चमी अस्ति, किमर्थम् इति अस्ति तत्र प्रश्नः उदेति. अग्रे अग्रे पठतु.
अतो विभाषा गुणे श्रीयतां सूत्रेण धूमात् अनुपलब्धे इत्यनयोः कथं पञ्चमी? अगुणवाचकं श्रीलिङ्गश्च पञ्चम्याः
निषेधात् पञ्चमी निषेधः अस्ति. अगुणवाचकात् स्त्रीलिङ्गवाचकात् पञ्चमी निषेधः अस्ति. किमर्थं तत्र पञ्चमी इति प्रश्नः उदेति. अत्र समाधानमस्ति
इति चेत् अत्र इदं समाधानम् अकर्ते युणे पञ्चम्याः द्वे त्रीणि चत्वारिंशत् विभाषा गुणे स्त्रीयान् 2, 3, 2, 3, 20, 25 इति सूत्रकामः अष्टाध्यायं तत्र विभाषा गुणे स्त्रीयम् इति सूत्रं द्विधा विभज्यते विभाषा इति एकं सूत्रं गुणस्त्रीयम् इति द्वितीयं सूत्रं विभाषा इत्यत्र आकर्तृणे
आकर्तृणः आकर्तृणे
पञ्चमी इति भूत्रात् पञ्चमी इत्यनुवर्तते विभाषा पञ्चमी भवति इति विभाषा इति सूत्रस्य अर्थः
तत्र इदानीं त्यजामः तत्र तत्र किमर्थं तत्र भवति इति तत्र समाधानं दत्तमस्ति किमर्थम् इत्युक्ते कुत्रचित् अन्येषु स्थलेषु अपि यद्यपि सूत्रे उक्तमस्ति पूर्वस्मात् सूत्रात् पञ्चमी कुत्रचित् अगुणादपि त्रिलिङ्गवाचिपदात् अपि विकल्पेन पञ्चमी भवति इति तथा वदति इदानीं त्यजामः तत्र किञ्चित् व्याकरणांशः अस्ति इदानीं तत्रापि परन्तु कुत्रचित् स्थलेषु तत्र पञ्चमी अपि भवित् यद्यपि अगुणवाचि अस्ति अपि च स्त्रीवाचि अस्ति चेदपि तत्र कुत्रचित् तादृशप्रयोगः अस्ति इति तत्र व्याख्यानं तत्र किञ्चित् विशेषरीत्या तत्र सूत्रस्य विभजनं कृत्वा तत्र तादृश प्रयोगः तत्र प्रयोगस्य किमस्ति प्रयोगः भवितुमर्हति इति तत्र व्याख्यानकारः वदति अतः पर्वतः वह्निमान् धूमात् इत्यपि यद्यपि विभाषागुणे अस्त्रियाम् इत्यनेन तत्र यत्र अगुणवाची शब्दात् यत्र हेतुशब्दात् पञ्चमी न भवति भवति इति अस्ति परन्तु कुत्रचित् भवति इति तत्र उक्तमस्ति अस्तु तत्र अत्र तावदेव पर्याप्तम् अहं चिन्तयामि अत्र अन्यत् तत्र व्याकरणस्य अंशः अस्ति अग्रे पश्यामः इदानीम् अग्रिमं निरञ्जना भगिनी अग्रे पठतु
ओके
धन्यवादः
धन्यवादः
तत्र अन्तिमवाक्यं पठतु अग्रे अन्तिमवाक्यं पठतु तस्मिन् इत्थं च
विभाषा इत्यत्र अकर्तरि ऋणे पञ्चमी इति सूत्रात् पञ्चमी इति अनुवर्तते विभाषा पञ्चमी भवति इति विभाषा इति सूत्रस्य अर्थः गुणे अस्त्रियाम् इति द्वितीयसूत्रे विभाषा इति पञ्चमी इति च अनुवर्तते पूर्वोक्तः अर्थः पूर्वोक्तं वाक्यद्वयम् अस्य सूत्रस्य उदाहरणम् इत्थं सूत्रं विभज्य व्याख्यानात् शिष्टानां प्रयोगे सति क्वचित् अगुणादपि स्त्रीलिङ्गात् अपि पञ्चमी विकल्पेन भवति इति ज्ञेयम्
तथा शिष्टप्रयोगात् अस्माकं न वयं न कर्तुं शक्नुमः शिष्टः कः ये व्याकरण अधीतः तत्र तस्य सम्यक् ज्ञानमस्ति तद् शिष्टप्रयोगः इत्युक्ते अस्माकं तत्र शास्त्रेषु कोऽपि ग्रन्थेषु तादृश यत् अधीतः ये पण्डिताः ते तत्र तस्य प्रयोगं कर्तुं शक्नुमः अस्माभिः न कर्तुं शक्यते शिष्टानां प्रयोगे सति शिष्टानां प्रयोगः तादृशशिष्टप्रयोगः अस्ति इति कृत्वा तत्र कुत्रचित् अगुणवाचीपदात् स्त्रीलिङ्गादपि पञ्चमी भवति इति तत्र सत्य अस्य तस्य पर्वतः वह्निमान् धूमात् अपि च अभावः नास्ति घटः नास्ति घटः अनुपलब्धेः तत्र त्रिवाचिशब्दादपि गुणवाचिशब्दादपि त्रिवाचिशब्दादपि पञ्चमी भवति किमर्थम् इत्यस्य समाधानमस्ति अतः वयं त्यजामः तत्र पञ्चमी वयं न कर्तुं शक्नुमः शिष्टप्रयोगः एव तत्र कथं तत् समर्थनीयं खलु शिष्टप्रयोगः तत्र समर्थनार्थं तत्र विवरणं दत्तमस्ति व्याख्यानेषु किमर्थं तत्र कथं वयं तादृशशिष्टप्रयोगः अस्ति सम् आफ् वि हेव् टु जस्टिफै दट् वै पञ्चमी भवति इवन् दो वि हेव् द सूत्र पञ्चमी न भवति किमस्ति अगुणवाचिशब्दात् अपि च स्त्रीवाचकहेतुशब्दात् पञ्चमी न भवति तथापि अत्र कृतमस्ति किमर्थम् इति तत्र किञ्चित् तत्र विवरणं कृत्वा तत्र इति समाधानमेव तत्र जस्टिफैयिङ्ग् देट् वै शिष्टप्रयोगति केवलं वयं वी केनाट् यूस् देट् वि आर् नाट् शिष्टा शिष्टा इत्युक्ते तत्र शिष्टस्य तद् डेफिनेशन् अस्ति सः यः सर्वशास्त्र अधीतवान् यस्य व्याकरणशास्त्र न्यायशास्त्र सर्वान् यस्य सर्वस्य ज्ञानमस्ति सर्वेषां ग्रन्थानां ज्ञानमस्ति त सा एव शिष्टा भवितुमर्हति न तु वयम् अस्तु अग्रे पठतु
दशमः बिन्दुः कृष्णात् विना नान्या गतिः कृष्णं कृष्णेन विना नान्या गतिः पृथक् विना नानाभिः तृतीया अन्यतरस्याम् 2.3.32 पृथक् विना नाना इति एतैः योगे तृतीया स्यात् पञ्चमी द्वितीये च कृष्णाद् विना नान्या गतिः अत्र विना इति कृष्णेन अन्वितः अतः कृष्णात् पञ्चमी पञ्चम्याः अभावे अनेन एव सूत्रेण द्वितीया तृतीया च भवतः कृष्णाद् विना नान्या गतिः कृष्णं वर्जयित्वा अन्या गतिः नास्ति इति अर्थः कृष्णात् पृथक् नान्या गतिः कृष्णात् नाना नान्या गतिः अत्र पृथक् विना नानाभिः इत्यनेन तृतीया भवति तत्र तृतीया तृतीया पञ्चमी द्वितीया अपि भवति
पृथक् नाना विना अतः ऋते इति पञ्चमी वयं दृष्टवन्तः इदं विना इति योगे अपि भवति पृथक् डिफरेण्ट् इति भिन्नः इत्यपि भवितुमर्हति भिन्नः इत्यपि तत्र पृथक् इति भिन्नः अर्थे अपि भवितुमर्हति खलु तत्र वयं दृष्टवन्तः पूर्वं केन सूत्रेण वयं दृष्टवन्तः पूर्वम् अन्यात् आरात् इतरर्थे इत्यस्मिन्नपि पृथक् इत्युक्ते इतरः इति अर्थः भवति खलु भिन्नः इत्यर्थे तत्रापि भवति तत्र अत्र तृतीया अपि भवति इति अस्ति पृथक् यद्यपि भिन्नः इति अस्ति अत्र पृथक् इति पदात् पञ्चमी अपि भवति तृतीया अपि भवति द्वितीया अपि भवति यद्यपि भिन्नः इति अर्थः अस्ति परन्तु तत्र द्वितीया अपि भवति तृतीया अपि भवति इति अस्ति परन्तु अन्यत् आराद् इतर अस्ति तद् पञ्चमी एव अस्ति पञ्चमी अत्र भवति कृष्णात् न विना इति वयं दृष्टवन्तः जलं विना मीनाः न जीवन्ति जलस्य विना अथवा जलात् विना इति तत्र जीवन्ति मीनाः न जीवन्ति जीवितुं शक्नुवन्ति इति भवति तत्र अस्तु अग्रे धन्यवादः अग्रे इदानीं तत्र शङ्करप्रसाद् महोदय श्रूयते वा म्यूट् मध्ये अस्ति भवान् अस्तु एकादशः बिन्दुः
ओपनिङ्ग्
ग्राम
ग्रामात् दूरं नगरं गृहात् अन्तिकं गोष्ठं ग्रामस्य दूरं नगरं गृहस्य अन्तिकं गोष्ठम् दूरान्तिक अर्धै षष्ट्यन्त
षष्टि अन्यतरस्यां षष्ट्यन्यतरस्याम् इति अत्र यण् सन्धिः अस्ति षष्टी अन्यतरस्याम् इत्युक्ते विकल्पेन अन्यतर इत्युक्ते विभाषा अन्यतरस्यां वा इति सूत्रेषु वदति चेत् विकल्पः इति अर्थः अन्यतर षष्ठी अपि भवति पञ्चमी अपि भवति इति अस्ति अत्र अर्थः अस्ति अग्रे वदतु पठत् अग्रे
एतैः योगे षष्ठी स्यात् पञ्चमी च दूरान्तिक अर्थैः इति कथनात् दूरार्धकानाम् अन्तिकार्धकानां पर्यायाणाम् अपि ग्रहणम् अतः दूरान्तिकार्थैः शब्दैः सह सहयोगे षष्ठी भवति पञ्चमी च
पञ्चमी अपि भवति षष्ठी अपि भवति इति अस्ति. इदानीं पश्यतु
गोष्ठम् अनिकं मीनिङ्ग् कथम् अस्ति
कुत्र
गोष्ठं गोष्ठं
गोष्ठ
गोष्ठम् अनिकं गोष्ठं वाट्स् द मीनिङ्ग्
गोष्ठ इत्युक्ते षड्
षड् अनिकं
अन्तिक दूर अन्तिकार्थैः दूर अन्तिकार्थैः तत्र षट्यन्तरस्याम् इति तत्र योगे तत्र तादृश अर्थानां यो अपि पश्यतु अत्र अग्रे पठतु तत् स्पष्टः भवति.
ग्रामात् दूरं नगरम् अत्र दूरेण योगो ग्रामस्य अतः ग्रामात् पञ्चमी प्रकृतसूत्रेण गृहात् अन्तिकं गोष्ठम् अत्र अन्तिकेन योगः गृहस्य अतः गृहात् पञ्चमी प्रकृतसूत्रेण पर्यायाणामपि ग्रहणात् ग्रामात् विप्रकृष्टं नगरं गृहात् निकटं गोष्ठम् इत्यत्र अपि पञ्चमी भवति. पञ्चम्याः अभावे अनेन एव सूत्रेण षष्ठी भवति यथा ग्रामस्य दूरं नगरं गृहस्य अन्तिकं गोष्ठम्
गोष्ठम् इति अत्र गोष्ठम् इति षड् इति अस्ति गोष्ठम् इति षड् कौ षड् षड् अन्तिकं समीपे ग्रामस्य दूरम् अथवा ग्रामात् दूरमपि तत्र पञ्चमी भवति. तत् किमर्थम् इति दूरान्तिकार्थैः तादृश दूरान्तिक अर्थैः तत्र तादृश अर्थानां शब्दानां योगे अत्र पश्यतु ग्रामात् विप्रकृष्टं नगरम् अथवा विप्रकृष्टमिति समीपे इति अस्ति विप्रकृष्टं समीपे इति अर्थः तत्र अतः तादृशानाम् अर्थानां योगे निकटं पश्यतु दूरान्तिकार्थे
विप्रकृष्ट इत्युक्ते दूरि दूर एव न
दूर प्रकृष्ट दूर 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 दूरात् 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 नगरं आम् निकटं समीपे निकटं समीपे हा तत्र पञ्चमी भवति. पञ्चमभावे अनेन सूत्रेण षष्ठी भवति अत्र ग्रामस्य अन्तिकं गोष्ठं ग्रामस्य दूरं नगरम् इति भवति इति अस्ति तत् अस्तु अग्रे धन्यवादः अग्रे इदानीं तत्र हा इदानीं तत्र सुमित्रा भगिनी अग्रे पठति वा.
आं महोदय नमस्कारः. ग्रामस्य दूरात् विप्रकृष्टात् वनमस्ति वृक्षस्य अन्तिकात् निकटात् गौः अस्ति दूरान्तकार्थेभ्यो द्वितीया 2335 दूर अन्तिकार्थेभ्यः शब्देभ्यः द्वितीया स्यात् पञ्चमी तृतीया अपि दूरान्तकार्थेभ्यः इति
अत्र किमस्ति
दूरार्थकानाम् अन्तिकार्थानां पर्यायाणामपि ग्रहणम् अयमत्र विशेषः
अत्र
अयमत्र विशेषः पूर्वसूत्रेण दूरान्तिकार्थैः 2334 दूरान्तिकार्थैः योगे तदर्थान्वितात् पञ्चमी षष्ठी च विभक्ति विहिता अनेन सूत्रेण तु दूरान्तिकार्थेभ्यः शब्देभ्यः एव विभक्तयः विहिताः विभक्तीनामर्थोऽपि प्रातिपदिकार्थ एव सप्तम्याधिकरणे च 2336 इति सूत्रेणापि दूरान्तिकार्थेभ्यः सप्तमी विहिता प्रकृतसूत्रेण तु द्वितीया पञ्चमी तृतीया चेति तिस्रो विभक्तयः विहिताः
अत्र
एवञ्च चतस्रः विभक्तय भवन्ति यथा ग्रामस्य दूरं वनमस्ति ग्रामस्य दूरेण वनमस्ति ग्रामस्य दूरात् वनमस्ति ग्रामस्य दूरे वनमस्ति
तत्र तत्र एकवारं पुनः पठेम तत्र दूरान्तिकार्थेभ्यः द्वितीया इति पश्यतु उपरि उपपदविभक्ति अस्ति तस्य समीपे पदमस्ति तस्य पञ्चमी भवति इति वयं दृष्टवन्तः ग्रामात् दूरं वनम् अस्ति दूरम् इति तत्र दूरम् इति अत्र ग्रामात् दूरम् इति अस्ति अत्र ग्रामात् तत्र गृहात् निकटं गोष्ठमस्ति इति अस्ति अथवा गृहात् ग्रामात् दूरम् अथवा विप्रकृष्टं नगरम् अस्ति इति अस्ति इदानीं पश्यतु इदानीं यत् तत्र उपपदविभक्तेः तत्र पूर्वम् उपपदविभक्तिः तत् समीपे समीपस्थपदस्य एव पञ्चमी भवति इदानीं तस्य पदस्य एव भवति पञ्चमी दूरान्तिकार्थेभ्यः तस्मै तेभ्यः एव पञ्चमी भवति दूरस्य एव तत्र दूरात् दूरेण पश्यतु इति अस्ति खलु तत्र तादृश भवति इति अस्ति अत्र अत्र विशेषः अस्ति पूर्वसूत्रेण दूरान्तिकार्थैः योगे भवति परन्तु अत्र अन्यसूत्रेण तु दूरान्तिकार्थेभ्यः शब्देभ्यः एव विभक्तः पञ्चमीविभक्तिः भवति शब्दस्य एव तत्र उपपदः नास्ति तत्पदात् एव भवति इति अस्ति अतः एव तादृशरूपाणि अत्र भिन्नभिन्न ग्रामस्य दूरं वनम् अस्ति इति अस्ति अत्र षष्ठी भवति इति अस्ति तत्र ग्रामस्य दूरं षष्ठी अन्यतरस्याम् इत्यनेन अन्यतरस्याम् इत्यनेन सूत्रस्य सूत्रेण भवति ग्रामस्य दूरं वनम् अस्ति इति इदानीं पश्यतु ग्रामस्य ग्रामस्य दूरेण वनमस्ति केन भवति ग्रामस्य दूरेण वनम् अस्ति दूरेण तृतीया भवति येन दूरान्तिका दूरम् इत्यस्य तृतीया भवति दूरेण वनम् अस्ति इति दूरान्तिकार्थेभ्यः द्वितीया किमस्ति अत्र द्वितीया तृतीया अपि भवति इति तत्र भवति इति अस्ति तत्र अग्रे ग्रामस्य दूरात् पञ्चमी भवति इति अस्ति तत्रापि भवति ग्रामस्य दूरे वनमस्ति तत्र सप्तमी अपि भवति इति अस्ति सप्तमे अधिकरणे चैत्यनेन तत्र ग्रामस्य दूरे वनमस्ति इति भवति इति अस्ति अतः तत्र चत्वारः प्रयोगः इदानीम् अग्रे पठतु
वृक्षस्य अन्तिकं गौः अस्ति वृक्षस्य अन्तिकेन गौः अस्ति वृक्षस्य अन्तिकात् गौः अस्ति वृक्षस्य अन्तिके गौः अस्ति अत्र पूर्वोक्तेषु आद्येषु चतुर्षु वाक्येषु ग्रामस्य इति अविशिष्टेषु चतुर्षु वाक्येषु वृक्षस्य इति च श्रूयते तत्र ग्रामात् इति वृक्षात् इत्यपि प्रयोक्तुं शक्यते दूरान्तिकार्थैः षष्ट्यन्त्यतरस्यां 2334 इति सूत्रबलात् एवञ्च पुनः अष्टौ वाक्यानि सम्भवन्ति इति फलितम्
अत्रापि इदानीं वृक्षात् अन्तिकं गौः अस्ति वृक्षात् अन्तिकेन गौः अस्ति वृक्षात् अन्तिकात् गौः अस्ति वृक्षात् अन्तिके गौः अस्ति इत्यपि भवितुमर्हति केन सूत्रेण तत्र दूरान्तिकार्थे शब्दे अनतरस्याम् इति अस्ति खलु तत्र अतः भवति इति भवति इदानीम् अन्तिकम् अन्तिकात् अन्तिकेन अन्तिके किमर्थं भवितुमर्हति अग्रिमसूत्रेण दूरान्तिकार्थेभ्यः द्वितीया इति सूत्रेण भवति अतः तत्र अत्र पञ्चमी भवति तत्र अष्टवाक्यानि भवितुमर्हति इति अस्ति अग्रे
इदमत्र विज्ञेयं दूरः पन्थाः निकटो ग्रामः इत्यादौ दूरशब्दः निकटशब्दश्च सत्त्ववाचिनौ अर्थात् द्रव्यवाचिनौ असत्त्ववचने एव पूर्वोक्ताः चतस्रः विभक्तयः सत्त्ववचने तु विशेष्यानुसारेण विभक्तः भवन्ति यथा दूरः पन्थाः दूराय पथे दूरस्य पथः इत्यादि सत्वं नाम लिङ्गसङ्ख्यान्वयी
असत्त्ववाचि असत्त्ववचने एव तत्र पूर्व अत्र दूरः पन्थाः इति अत्र मार्गः निकटः ग्रामः तत्र निकटशब्द तत्र निकटशब्दश्च सत्त्ववाचिनः सन्ति तत्र अतः तत्र द्रव्यवाचि अतः इति द्रव्यं भवति चेत् असत्त्ववाचिने एव भवति परन्तु अत्र न भवति इति अस्ति तत्र दूरस्य पथः अतः दूर तत्र दूरः पन्था किमर्थं प्रथमा भवति इति तत्र दत्तमस्ति अत्र विशेषण तत्र विवरणं दत्तमस्ति अस्तु अग्रे
अत्र सत्त्ववाचिनो द्रव्यवाचिनो इत्युक्ते किं
द्रव्यवाचिनि असत्त्ववाचि इत्युक्ते सत्त्ववाचिनि इत्युक्ते किम् अस्ति अत्र लिङ्ग यस्य लिङ्गसङ्ख्या अन्वयः अस्ति यस्य लिङ्गः भवति यत्र सङ्ख्या भवितुमर्हति तत्र सत्त्ववाचि सत्त्ववाचि इति वदामः सत्त्ववाचि लिङ्ग भवेत् द्रव्य तत्र यस्य लिङ्गः भवेत् अथवा तत्र सङ्ख्या भवेत् तत्र सत्त्व इति मेटीरियल् भवेत् इस् नाट् मेटीरियल् असत्त्ववाचि इति अस्ति अत्र चादय असत्त्वे इति सूत्रमस्ति चादय इति तत्र अव्ययः भवन्ति चादि चादिगणः चादि अत्र तत्र यत्र अवय सत्त्ववाचश्चेत् अव्ययः न भवति इति चादय असत्त्वे इति तत्र सूत्रमस्ति तत् असत्त्ववाचि सत्त्ववाचि इत्युक्ते यस्य सत्त्वं न दत्तमस्ति खलु सत्त्वं नाम यस्य लिङ्गसङ्ख्या लिङ्ग अपि सङ्ख्या भवति चेत् तस्य सत्त्ववाचि इति वदामः सत्त्ववाचिः पन्थः इत्यस्य विशेषणमस्ति खलु तत्र विशेषण पन्थः इति विशेषणमस्ति पन्था इत्यत्र सत्त्ववाचि अस्ति अतः दूरः पन्थः इति विशेषणमस्ति दूरः पन्थाः इत्युक्ते मार्ग दूरः मार्गः निकटः ग्रामः तत्र दूरशब्दः निकटशब्दः सत्त्ववाचि किमर्थं तत्र लिङ्गसङ्ख्या अस्ति खलु निकटः ग्रामः निकटम् अरण्यं किमर्थं तत्र निकटं तत्र निकट तत्र निकटशब्दस्य योगे पञ्चमी भवति वा इति न प्रश्नः भवति तत्र नास्ति अत्र विशेषमस्ति लिङ्गसङ्ख्यवाचिनी अस्ति अत्र विशेषणमस्ति खलु ग्रामस्य अत्र पन्था इति पुल्लिङ्गे अस्ति अत्र पुल्लिङ्ग तस्य विशेषणमस्ति दूरः अतः तस्य दूर इति सङ्ख्यावाचि अस्ति खलु तत् अत्र लिङ्ग अस्ति खलु निकटः ग्रामः ग्रामस्य विशेषणमस्ति निकटः इति अत्र एतत्तु विशेषणमस्ति ग्रामस्य अतः तत्र सत्त्ववाचि अस्ति एतत् ग्रामः इति पुल्लिङ्ग अस्ति अतः निकट इति पुल्लिङ्गः भवेत् निकटः ग्रामः निकटम् अरण्यं निकटं गृहं दूरं गृहम् इति तादृश इति भवति चेत् अत्र यत्र विशेषणमस्ति विशेषणम् अस्ति चेत् दूर इति तादृश तत्र न भवति असत्त्ववाचिनि एव भवेत् इति अस्ति
अवगतम्
इति अस्ति
धन्यवादः
अवगतं खलु अस्तु अग्रे इदानीं धन्यवादः तत्र किञ्चित् व्याकरण इति यदि न अवगतं चेत् चिन्ता मास्तु इति किमर्थमिति चेत् इति व्याकरण अस्माकं विषयः नास्ति अस्माकं विषयः अस्ति तत्र रूपं गीतासोपाने पञ्चमीभक्तिरूपाणि कथं भवति कदा भवति इति किञ्चित् सूत्रदृष्ट्या एव पठेमः इति कृत्वा अहम् उक्तवान् तत्र अन्यथा नीरसः भवति पाठः इति कृत्वा अस्तु अग्रे इदानीं तत्र वदति एकनिमिषः वत्सला भगिनी अग्रे पठति वा
हा कर्मप्रवचनीयपञ्चमी उपपदविशेषः आ हिमालयात् चीनादेशः आ तेन विना आ हिमालयात् भारतदेशः आ तेन सह पञ्चम्य अपाङ् परिभिः
पञ्चम्य अपाङ् परिभिः अस्तु
अपाङ् परिभिः पञ्चम्य अपाङ् परिभिः टु त्री टेन् अप आङ् परि इत्येतैः कर्मप्रवचनीयैः योगे पञ्चमी स्यात् मर्यादा अभिविदिश्येति द्वौ अत्तौ आङ्गः तादृशार्थकेन आङ्गः योगे पञ्चमी भवति मर्यादा नाम तेन विना अभिविर्नाम तेन सह तेन विना तेन सह द्वयोः यूसेज् मे यूल् गेट्
आङ् इति आङ् उपसर्गः अस्ति अत्र नकारस्य लोपः भवति आङ् इति उपसर्गः अतः आहिमालयात् आङ् इति आहिमालय इत्युक्ते आहिमालयात् चीनादेशः आहिमालयात् आकन्याकुमारीपर्यन्तं भारतदेशः इत्युक्ते फ्रम् टु इति अतः आङ् उपसर्ग इत्युक्ते तत्र अर्थः द्वयम् अर्थद्वयमस्ति मर्यादा इत्युक्ते मर्यादा इत्युक्ते बार्डर् आहिमालयात् तत्र आहिमालयात् इत्ये तत्र हिमालयात् आरभ्य अभिविधि इत्युक्ते तेन सह इति कन्याकुमारीपर्यन्तं बार्डर् अस्ति चेत् अभिविधिः अथवा मर्यादा इत्युक्ते बार्डर् अभिविधि इत्युक्ते तत्र तेन सह हिमालयात् आरभ्य इति फ्रम् दट् टिल् मर्यादा इत्युक्ते बौण्डरि आहिमालयात् आकन्याकुमारीपर्यन्तम् इत्युक्ते आङ् उपसर्गयुक्तः अस्ति परन्तु अर्थः भिन्नः फ्रम् हिमालयात् टु इति आहिमालयात् आकन्याकुमारी आकन्याकुमारी किमस्ति
आहिमालया चीनादेशः तत्र हिमालयात् टु चीनादेश इति अर्थः
हिमालयात् एक्स्क्लूडिङ्ग् हिमालय तत्र हिमालयं वर्जयित्वा ततः चीनादेशः इति अर्थः आहिमालयात् चीनादेश इत्युक्ते हिमालयात् बहिः चीनादेशः अस्ति आहिमालय भारतदेशः इत्युक्ते तत्र इन्क्लूडिङ्ग् तत्र हिमालयम् अभिवाप्य भारतदेशः अस्ति इति अभिवाच्य तत् इन्क्लूडिङ्ग् तेन सह हिमालय तेन सह भारतदेशः इति अत्र आङ् उपसर्गयुक्तेन तत्रापि तत्र पञ्चमी भवति इति अस्ति आङ् इत्यस्य अर्थः द्वयं भवति मर्यादापि अभिविधिः इति मर्यादा इत्युक्ते बौण्ड्रि तेन विना इति अत्र अभिविधिः इत्युक्ते तत्र तेन सह इन्क्लूडिङ्ग् एक्स्क्लूडिङ्ग् आहिमालयात् कन्याकुमारीपर्यन्तं भारतदेशे इत्युक्ते इन्क्लूडिङ्ग् हिमालयात् परम् आरभ्य कन्याकुमारीपर्यन्तं तत्र मर्यादा बौण्ड्रि इति अस्ति अतः तत्रापि अतः तत्र पञ्चमी भवति इति अस्ति अत्र कर्मप्रवचने इत्युक्ते अत्रापि पश्यतु वयं दृष्टवन्तः पूर्वं विभक्तीनां प्रयोगः विभक्तीनां निमित्तं किं निमित्तानि कानि इत्युक्ते एकमस्ति कारकं द्वितीयमस्ति उपपद इति दृष्टवन्तः सामान्यतः तदेव भवति तृतीयः अस्ति कर्मप्रवचनीया इत्युक्ते एचन एतदपि उपपद इव अस्ति इदं त्यजामः कर्मप्रवचने इत्युक्ते उपपद इव अस्ति कर्म तत्र उपपद इव अस्ति तस्य योगे अपि पञ्चमी भवति इति तत्र केचन पदानां तत्र केचन अव्ययानां तत्र विशिष्ट अर्थेषु तत्र कर्मप्रवचनीयसंज्ञा इति सूत्रे उक्तमस्ति अष्टाध्यायम् इदानीं त्यजामः किमर्थं तत्र कर्मप्रवचनसंज्ञा भवति इति वयं स्वीकुर्मः एतदपि उपपद इव अस्ति इति अतः आङ् इति आङ् उपसर्गयुक्ते पञ्चमी भवति इति वयम् इति स्वीकुर्मः तदेव
कः अर्थः पञ्चमी अपाङ् परिभिः परिभिः अराौण्ड् परितः
पञ्चमी पञ्चमी अपा आङ् परिभिः परिभिः योगे परियोगे आङ् योगे अपयोगे परि इति खलु परिभिः इति तत्र समासः अस्ति एतेषां त्रीणि पदानि सन्ति तेषां तैः तत्र तैः तत्र पञ्चमी भवति इति अस्ति पश्यतु अत्र परिभिः परि इति परि अप परि योगे अपि आङ् योगे इदानीम् अग्रे पठतु अपयोगे
अप अपहरे संसारः परि परिहरे संसारः हरि वर्जयित्वा संसारः इत्यर्थः लास्ट् लैन्
संसारः अप अप इत्यत्रापि वर्जयित्वा परि इत्युक्ते परिहरेः संसारः हरिं वर्जयित्वा संसारः इति अस्ति तत्र तत्र अर्थः एव तत्र वर्जयित्वा इति अपपरि इति अपि वर्जयित्वा इति अस्ति. आम् इत्यस्य वर्जयित्वा अपि अस्ति, अपि च इन्क्लूडिङ्ग् अपि अस्ति, एक्स्क्लूडिङ्ग् इति अस्ति, अर्थः द्वयमस्ति. एतदेव पञ्चमीविभक्तेः तत्र वयं दृष्टवन्तः. एतानि तत्र सूत्राणि सन्ति, तत्र किञ्चित् केचन तत्र कानिचन तत्र उदाहरणानि अपि पठितवन्तः. इदानीं पश्येम, पुस्तकं प्रति गच्छेम. इदानीम् इतोपि स्पष्टः भवति अत्र यत्र यत्र तादृशप्रयोगः भवति वयं पश्येम तत्र तत्र सूत्राणि कानि इति. अस्तु, इदानीम् अग्रे, इदानीं तत्र निवारयति, तत्र न दत्तमस्ति निवारण वारणार्थम् ईप्सितः तत्र तत्र न
दत्तमस्ति. हिमालयात् चैनादेशः बोतार् सेम् आज् आ हिमालयात् चीनादेशः, आ हिमालयात् भारतदेशः, कथं ज्ञातुं इन्क्लूडिङ्ग् एक्स्क्लूडिङ्ग् कथं ज्ञातुं?
तत्र ज्ञानं भवेत् अस्माकम्. आ हिमालयात् चीनदेश इत्युक्ते तत्र हिमालयात् एक्स्क्लूडिङ्ग् हिमालय, हिमालय अस्माकम् अस्ति इति. अस्माकं भारतस्य यद्यपि हिमालय इदानीं चीनादेशे एव अस्ति खलु इदानीं तत्र तदस्ति, परन्तु अर्थः आङ् इत्यस्य आङ् इति आ इत्यस्य अर्थः द्वयम् अस्ति, अर्थद्वयम्. आङ् इति उप तत्र किमस्ति, उपसर्गः अस्ति. उपसर्गः इति प्रादिः अस्ति, प्रादि इति वदामः. यदि उपसर्गः कदा भवति? यदा क्रिया क्रियापदानां योगे तस्य नाम तस्य नाम भवति उपपदं, सारि उपसर्गः इति. यदि प्रातिपदिकापि योजयामः चेत् प्रादय इति वदामः, प्रपर इति. तत्र द्वाविंशति प्रादयः सन्ति, तेषां यदा धातूनां योगे उपसर्गः भवति इति. यदि प्रातिपदिकयोगे भवति चेत् तत्र प्रादयः इति वदामः. इदानीं तत्र हिमालय इति नामपदमस्ति, अतः नामपदात् योगे तत्र प्रादि इति वदामः. सामान्यतः वयं फोर् अवर् अण्डर्स्टाण्डिङ्ग् विषये उपसर्ग इति, आ इति अस्य अर्थः अर्थद्वयम् अस्ति इति वयं दृष्टवन्तः खलु. एतत् एक्स्क्लूडिङ्ग् इन्क्लूडिङ्ग् इति. एतत् ये त्यजामः, आचीनात् इति, आ हिमालयात् आ कन्याकुमारी इति अस्ति. कथं वयं जानीमः? इद जानीमः खलु, फ्रम् टु इति तादृशप्रयोगः यत्र भवति तत्र. अवगतं वा? अत्र दत्तमस्ति. आमां सत्यं, यत्र वयं न यद् इफ् यु आर् नाट् नोयिङ्ग् देन् वि केनाट्.
हा,
चीनादेशीय चीनावैदेशीय वदेत् आ हिमालयात् चीनादेशः इति, इन्क्लूडिङ्ग् हिमालय इति. वयं वदामः आ हिमालयात् भारतदेशः इति, तदपि वैद्यमर्हति खलु. किमे हि विल् यूस् इट् आ हिमालय भारतदेश इत्युक्ते हिमालयं वर्जयित्वा भारतदेश इति वद सः वदेत्. आं सत्यं, तादृशम् अस्ति. अतः तत्र केवलं वर्जयित्वा अथवा तेन विना अथवा तेन सह इति आङ् इति उच्यते अर्थ इति प्रादि अस्ति, तस्य अर्थः अर्थद्वयमस्ति. अपपरि इत्यस्य वर्जयित्वा इति, अपहरेः इति अप अपि च परि इति इत्यपि उपसर्ग अथवा एतत् प्रादिः अस्ति, यत् आप् अप परि इति.
अस्तु, धन्यवादः.
अस्तु, इदानीम् अस्तु, इदानीं तत्र पञ्चमेः तत्र भुवप्रभवः इति वयं न दृष्टवन्तः. अत्र अन्यत्र यद् नाट् गिवन् आल् एच् देर् आर् सम् मोर् देर् आर् मेनि सूत्रास् आर् देर् आक्चुलि इट् इस् नाट् गिवन्. अस्तु, अस्मिन् पुस्तके. अस्तु, अग्रे इदानीं कुतः पठेम एकवारम् तत्र. अस्तु, एतानि रूपाणि अत्र कः वदति इदानीं तत्र यशोदा भगिनी पठति वा तत्र पञ्च पुस्तकात्, अस्माकं पुस्तकमस्ति खलु गीतासोपानं, तत्र पञ्चमीविभक्तिः रूपाणि.
उकोष्ठम् अस्ति न
हा कोष्ठकम् अस्ति खलु तस्मात् एकवारं पठतु
वृक्षः वृक्षात् वृक्षाभ्यां वृक्षेभ्यः
वृक्षः इति तत्र अकारान्तपुल्लिङ्गपदमस्ति अतः वृक्षात् वृक्षाभ्यां वृक्षेभ्यः तथैव
तथैव कृष्णः
कृष्णात्
कृष्ण कृष्णाभ्यां कृष्णेभ्यः
गुणः
शेल् वी रीड् फर्दर्
गुणः गुणः तदपि अकारान्तपुल्लिङ्गमस्ति
अकारान्तपुल्लिङ्ग गुणात् गुणाभ्यां गुणेभ्यः
धन्यवादः तत्र अकारान्तपुल्लिङ्ग अस्ति तत्र वृक्षात् वृक्षाभ्यां वृक्षेभ्यः इति अस्ति कृष्णात् कृष्णाभ्यां कृष्णेभ्यः गुणात् गुणाभ्यां गुणेभ्यः इति अत्र रूपाणि तादृशरूपाणि
सत्यं
हा इदानीं धन्यवादः वत्सला भगिनी ईकारान्तस्य एकवारं कविः
कविः कवेः कविभ्यां कविभ्यः अग्निः अग्नेः अग्निभ्याम् अग्निभ्यः
इकारान्तपुल्लिङ्गशब्दमस्ति अतः कवेः अग्नेः इति भवति तत्र एत्वं भवति कवेः अग्नेः कविभ्याम् अग्निभ्यां कविभ्यः अग्निभ्यः इति भवति अत्र दीर्घ कवीभ्यां न भवति अग्निभ्यां न भवति अग्निभ्यः कविभ्यः अग्निभ्यां यथा गुणाभ्यां गुणः इति गुणाभ्यर्घ भवति अत्र न भवति कविभ्याम् अग्निभ्यः अग्निभ्याम् इति भवति अस्तु अग्रे उकारान्त अपि पठतु
गुरुः गुरोः गुरुभ्यां गुरुभ्यः
अत्रापि गुरोः उकारान्तपल्लिङ्ग उकारान्त अस्ति अतः ओ भवति ईग अस्ति चेत् गुणः भवति उ अस्ति चेत् ओ भवति ई अस्ति चेत् ए भवति अग्नेः अतः अन्यानि सर्वाणि समानानि अतः गुरुभ्यः अग्निभ्यः गुरुभ्याम् अग्निभ्याम् अग्नेः इति अस्ति अत्र गुरोः इति भवति अत्र उकारान्तपल्लिङ्ग गुरोः इति भवति अस्तु धन्यवादः अग्रे निरञ्जनभगिनि
कर्ता ऋकारान्तपुल्लिङ्गशब्दस्य कर्ता कर्तुः कर्तृभ्यां कर्तृभ्यः शाखा अकारान्तस्त्रीलिङ्गे शाखा अकारान्तस्त्रीलिङ्गे शाखायाः शाखाभ्यां शाखाभ्यः मतिः इकारान्तस्त्रीलिङ्गे मत्याः मतेः मतिभ्यां मतिभ्यः नदी
अत्र ह्रस्व इकारान्त अस्ति चेत् ह्रस्व इकारान्त अस्ति चेत् तत्र पुल्लिङ्गवत् अपि भवति तत्रापि दीर्घ इकारान्त स्त्रीलिङ्ग यद् रूपं तद् तत् तथा अपि भवति नद्याः मत्याः इति तत्र अग्रे पश्येम परन्तु मतेः अग्नेः कवेः अपि रूपं भवति अत्र इकारान्त स्त्रीलिङ्ग अस्ति चेत् रूपद्वयं भवति एकवचने इति अस्ति तत्र मत्याः इति अस्ति मतेः मतेः इति पुल्लिङ्गवत् अस्ति यत्र अग्नेः कवेः इति तत्र रूपद्वयं भवति इति अस्ति अग्रे नदी
नदी दीर्घ इकारान्त स्त्रीलिङ्गिशब्द नद्याः नदीभ्यां नदीभ्यः दैवी दीर्घ इकारान्त स्त्रीलिङ्गि दैव्याः दैवीभ्यां दैवीभ्यः उकारान्त स्त्रीलिङ्गि धेनुः धेनवाः धेनोः रूपद्वयं भवति धेनुभ्यां धेनुभ्यः
यथा यथा वयं मतिः इति वदिष्टवन्तः खलु स्त्रीलिङ्गः अस्ति चेत् पुल्लिङ्गवत् भवति गोरो गुरोः इति रूपद्वयं भवितुम् अर्हति अत्र धेनुः इति धेनु इति स्त्रीलिङ्गे अस्ति धेनुः पुल्लिङ्गः अस्ति चेत् अत्र तत्र धेनोः एव भवेत् अत्र धेनु पुल्लिङ्ग अपि भवितुम् अर्हति खलु तत्र स्त्रीलिङ्गे अत्र रूपद्वयं पुल्लिङ्ग लिङ्गद्वयमस्ति तत् पुल्लिङ्गस्य धेनोः इति भवति धेन्वा इति वदामश्चेत् अत्र धेन्वाः इति वदामश्चेत् तत्र स्त्रीलिङ्ग एव धेनु स्त्रीलिङ्गे अस्ति अग्रे
वधूः दीर्घ उकारान्त स्त्रीलिङ्गिशब्द वधूः वध्वाः वधूभ्यां वधूभ्यः भवति
अत्र तत्र अत्र रूपद्वयं नास्ति वध्वोः इति नास्ति दीर्घ उकारान्त यत्र वधू इति स्त्रीलिङ्ग अस्ति धेनु इति स्त्रीलिङ्ग धेनोः इति अस्ति परन्तु दीर्घ उकारान्त अस्ति चेत् तत्र धेन्वा यथा अस्ति तत्र वध्वा एव एकमेव रूपमस्ति अन्यत् ह्रस्व उकारान्त स्त्रीलिङ्गवत् अस्ति धन्यवादः अत्र सुमित्रा भगिनी अग्रे अग्रिमं छात्रूणां
sorry, I was on mute.
Mata.
Mata.
तत्र पुल्लिङ्गवत एव अस्ति खलु ऋकारान्त पुल्लिङ्ग यत् अस्ति कर्तृ इति अस्ति तत्रापि कर्तुः कर्तृभ्यां कर्तृभ्यः तत्र मातृभ्यां मातृभ्यः इति तत्र तत्र परिवर्तनं न किमपि समानमेव पुल्लिङ्गे त्रिलिङ्गे भवतु तत्र ऋकारान्त अस्ति चेत् पञ्चमी समानमेव अस्ति अग्रे
स्यन्दनं स्यन्दनात् स्यन्दनाभ्यां स्यन्दनेभ्यः
अकारान्त नपुंसकलिङ्गमस्ति तत्र पुल्लिङ्गवत् अस्ति तत्र केवलं प्रथमाविभक्ति वयं प्रथमा द्वितीया विभक्तिरूपाणि भिन्नानि भवन्ति पुल्लि पुल्लि अकारान्त तत्र पुल्लिङ्गे अथवा नपुंसकलिङ्गे परन्तु अन्यानि सामान्यानि सामान्यरूपाणि भवन्ति सन्दनं सन्दनात् सन्दनाभ्यां सन्दनेभ्यः अग्रे
वारि वारिणः वारि वारिभ्यां वारिभ्यः
अत्र नकारः श्रूयते वारिन् इति नास्ति वारिणः इति तत्र नकारः श्रूयते वारि इति ह्रस्व इकारान्त नपुंसकलिङ्गमस्ति अतः वारिणः वारिभ्यां वारिभ्यः वारि वारिणी वारिणि खलु तत्र तत्र वारि इति तत्र पञ्चमी भवति वारिणः तत्र नकारः श्रूयते उकारान्त इकारान्त नपुंसकलिङ्ग अस्ति चेत् नकारः श्रूयते वारिणा इति खलु तृतीया तत्र नकारः भवति तत् सर्वत्र अग्रे हा
मधु मधु मधुनः मधुभ्यां मधुभ्यः
हा मधु अपि नपुंसकलिङ्गे अस्ति नकारः श्रूयते तृतीया मधुना मधुने मधुनः खलु अतः तत्र नकारः श्रूयते तत्र नपुंसकलिङ्गे तादृश तत्र विशेषमस्ति सूत्रमस्ति इति त्यजामः इदानीं तादृश अस्ति इति वयं तत्र रूपाणि कथं भवन्ति इति केवलम् अस्माकम् अवगमनं भवेत् अस्तु वयं जानीमः तथापि किञ्चित् भवतु इति कृत्वा अग्रे पश्यामः इदानीं तत्र अग्रे वाक्यानि सन्ति चेत् किमर्थं पञ्चमी भवति इति अग्रे एकं तत्र कथां पठित्वा कर्तुं शक्यते परन्तु मम इदानीं तु ऐ केनाट् शेर् द स्क्रीन् आन् दे हव् स्टाप्ड् द वीडियो फ्री वीडियो शेरिङ्ग् फेसिलिटि ऐ थिङ्क् दट्स् वै एम् नाट् एबल् टु शेर् अदर्वैस् वि कुड् हाव् टेकन् ए स्टोरि इन् नेक्स्ट् क्लास् ऐ विल् शेर् अ स्टोरि एण्ड् देन् विल् सी पञ्चमी विभक्तिः अस्ति चेत् किमर्थं भवति किमर्थम् उपपदः भवति वा अथवा कारकपञ्चमी अस्ति वा उपवदपञ्चमी अस्ति वा अथवा कर्मप्रवचनपञ्चमी अस्ति वा इति पश्यामः अस्तु अत्रैव स्थगयामः प्रश्नः अस्ति चेत् कृपया उच्यताम् अन्यथा अत्रैव स्थगयामः समयः अभवत् अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः धन्यवादः शुभरात्रि शुभदिनं च
धन्यवादः
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 शुभरात्रि
धन्यवादः महोदय
धन्यवादः